ॐ श्री गुरुभ्यो नमः हरिः ॐ ॐ नमो भगवते रुद्राय नमस्ते रुद्रमन्यवभूतोतयिषवे नमः नमस्ते अस्तु धन्वने बाहुभ्यामुतते नमः यातयिषु शिवतमा शिवं बभूवते धनुः शिवाशरज्ञा यातवतया नो रुद्रमृडया याते रुद्रशिवातनुरघोरापापकाशिनी तया नस्तनुवाशन्दमया गिरिशन्दाबिजाकशीः यामिषुं गिरिशन्दहस्ते बिभर्ष्यस्तवे शिवाङ्गिरित्रतां कुरु माहि गुंसे पुरुषं जगत् शिवेरपचसा त्वा गिरिशाच्छा वदामसि यथा नः सर्वमिज्जगदयक्ष्मगं सुमना असत् अध्यवोचदधिभक्ता प्रथमो दैव्योऽभिषग् अहीगुश्च सर्वा आञ्जम्भयन् सर्वा आश्च यातु धान्यः असौ यस्ताम्रो अर्णौत बभ्रस्सु मङ्गलः ये चेमागुं रुद्रा अभिदो दिक्षुश्रुताः सहस्रशो वैशागुंहेडयीमहे असव्यो वसर्पतिनीलग्रीवो विलोहितः उतैनं गोपा अदृशन्नदृशन्नुतहार्यः उतैनं विश्वा भूतानि सदृष्टो मृणयातिरः नमो अस्तु नीलग्रीवाय सहस्राक्षाय विधुषे अधो ये अस्य सत्त्वानोऽहन्तेभ्यो करं नमः प्रमुञ्जधन्वनस्त्वमुभयोरात्मीयोर्ज्यां याश्च देहस्तयिषवः पराता भगवो वप अवदत्यधनुस्त्वगुं सहस्राक्षशभेषुधे निशीर्यशल्यानां मुखा शिवो नः सुमना भव विज्यन्तनुः कपर्दिनो विशल्यो बाणवागुं हुता अनेसन्नस्येषव आभुरस्य निषङ्गधिः या ते हे द्रुमे दुष्टमहस्ते बभूवते धनुः तयास्मान् विश्वतस्त्वमयक्ष्मया परिब्धुजा नमस्ते अस्त्वायुधायानाततय धृष्णवे उभाभ्यामुतते नमो बाहुभ्यां तव धन्वने परिते धन्वनो हेतिरस्मान् प्रणक्तु विश्वतः अधो यैषुधिस्तवारे अस्मन्निधे हितम् नमस्ते अस्तु भगवन् विश्वेश्वराय महादेवाय त्र्यम्बकाय त्रिपुरान्दकाय त्रिगाग्निकालाय कालाग्निरुद्राय नीलकण्ठाय मृत्युञ्जयाय सर्वेश्वराय सदाशिवाय शङ्कराय श्रीमन्महादेवाय नमः नमो हिरण्यबाहवे सेनान्ये दिशां च पतये नमो नमो वृक्षेभ्यो हरिकेशेभ्यः पशूनां पतये नमो नमः सस्पिञ्जराय त्विषीमते पथीनां पतये नमो नमो बभ्रशाय विद्याधिनेन्द्रानां पतये नमो नमो हरिकेशायोपवीतिने पुष्टानां पतये नमो नमो भवस्य हेत्ते जगतां पतये नमो नमो रुद्राय तथा विने क्षेत्राणां पतये नमो नमः सूदाय हंत्याय वनानां पतये नमो नमो रोहिताय स्थपतये वृक्षाणां पतये नमो नमो मन्त्रिणे वाणिजाय कक्षाणां पतये नमो नमो भुवन्तये वारिवस्कृताय औषधीनां पतये नमो नम उच्चैर्घोषाय क्रन्दयते पत्तीनां पतये नमो नमः कृत्स्नवीताय धावते सत्त्वनां पतये नमः नमः सहमानाय निव्याधिनां व्याधिनीनां पतये नमो नमः ककुभाय निषङ्गिणे स्तेनानां पतये नमो नमो निषङ्गिणयिषु धिमते तस्कराणां पतये नमो नमो वञ्चते परिवञ्चते स्थायूनां पतये नमो नमो निचेरवे परिचरायारण्यानां पतये नमो नमस्त्रिकाभिभ्यो जिगागुं सद्भ्यो मुष्णतां पतये नमो नमोऽसि मद्भ्यो नक्तं जरभ्यः प्रकृतानां पतये नमो नम उष्णीषिणे गिरिचराय कुलुञ्जानां पतये नमो नम इषु मध्यो दन्वाविद्भ्यश्च वो नमो नम तन्वानेभ्यः प्रतिदधानेभ्यश्च वो नमो नम आयच्छद्यो विसृजद्भ्यश्च वो नमो नमोऽस्यद्भ्यो विद्यद्भ्यश्च वो नमो नम आसीनेभ्यश्च यानेभ्यश्च वो नमो नमः स्वपद्भ्यो जाग्रद्भ्यश्च वो नमो नमस्तिष्ठद्भ्यो दावद्भ्यश्च वो नमो नमः सभाभ्यः सभावदिभ्यश्च वो नमो नमो अश्वेभ्यो स्वपदिभ्यश्च वो नमः नमः व्याधिनीभ्यो विविध्यन्दीभ्यश्च वो नमो नम उगणाभ्यस्तृगुंहतीभ्यश्च वो नमो नमो घृत्सेभ्यो घृत्सपदिभ्यश्च वो नमो नमो व्रातेभ्यो व्रातपदिभ्यश्च वो नमो नमो गणेभ्यो गणपदिभ्यश्च वो नमो नमो विरूपेभ्यो विश्वरूपेभ्यश्च वो नमो नमो महद्यक्षुल्लकेभ्यश्च वो नमो नमो रथिभ्यो रथेभ्यश्च वो नमो नमो रथेभ्यो रथपदिभ्यश्च वो नमो नमः सेनाभ्यः सेनानिभ्यश्च वो नमो नमः क्षत्रुभ्यः सङ्ग्रहेतृभ्यश्च वो नमो नमस्तक्षभ्यो रथकारेभ्यश्च वो नमो नमः कुलालेभ्यः कर्मारेभ्यश्च वो नमो नमः पुञ्जिष्ठेभ्यो निषादेभ्यश्च वो नमो नम इषुभ्यो धन्वकृभ्यश्च वो नमो नमो मृगयुभ्यश्वनिभ्यश्च वो नमो नमश्वभ्यश्वपदिभ्यश्च वो नमः नमो भवाय च रुद्राय च नमः सर्वाय च पशुपतये च नमो नीलग्रीवाय च शितिकण्ठाय च नमः कपर्दिने च प्युक्तकेशाय च नमः सहस्राक्षाय च शतधन्वने च नमो गिरिशाय च शिपिभिष्टाय च नमो मीदुष्टमाय चेषुमते च नमो ह्रस्वाय च वामनाय च नमो बृहते च वर्षीयसे च नमो वृद्धाय च संवृद्धने च नमो अग्र्याय च प्रथमाय च नमः आशवे चातिराय च नमः शीघ्र्याय च शीभ्याय च नमः ऊर्म्याय च वस्वन्याय च नमः स्रोतस्याय च द्वीप्याय च नमो ज्येष्ठाय च कनिष्ठाय च नमः पूर्वजाय च वरजाय च नमो मध्यमाय च प्रगल्भाय च नमो च घन्याय च बुद्ध्याय च नमः सोभ्याय च प्रतिसत्याय च नमो याम्याय च क्षेम्याय च नमः उर्वर्याय च खल्याय च नमः श्लोक्याय च वसान्याय च नमो वन्याय च कक्ष्याय च नमः श्रवाय च प्रतिश्रवाय य च नमः आशुषेणाय च सुरथाय च नमः शूराय च बभिन्दते च नमो वर्मणे च वरुधिने च नमो भिन्दने च कवचिने च नमः श्रुताय च श्रुतसेनाय च नमो दुंदुभ्याय च हनन्याय च नमो धृष्णवे च प्रमृषाय च नमो दूताय च प्रहिताय च नमो निषंगिणे चेषु धीमते च नमः तीक्ष्णेशवे च युधिने च नमः स्वायुधाय च सुधन्वने च नमः श्रुत्याय च पथ्याय च नमः काट्याय च नीप्त्याय च नमः सूप्त्याय च धरस्याय च नमो नाभ्याय च वैचम्ताय च नमः कूप्याय च वट्याय च नमो वर्ष्याय च वर्ष्याय च नमो मेघ्याय च विद्युत्याय च नमः ईद्र्याय च तप्याय च नमो वात्याय च रेश्म्याय च नमो वास्तव्याय च वास्तुपाय च नमः सोमाय च रुद्राय च नमस्ताम्राय च अरुणाय च नमः शङ्गाय च पशुपतये च नमः उग्राय च भीमाय च नमो अग्रे वधाय च दूरे वधाय च नमो हन्त्रे च हनीयसे च नमो वृक्षेभ्यो हरिकेशेभ्यो नमस्ताराय नमः शम्भवे च मयोभवे च नमः शङ्कराय च मयस्कराय च नमः शिवाय च शिवतराय च नमस्तेऽर्थ्याय च पूल्याय च नमः पार्याय च वार्याय च नमः प्रतरणाय चोत्तरणाय च नमः आचार्याय च लाद्याय च नमः षष्ट्याय च धेन्याय च नमः सिकत्याय च प्रवाह्याय च नमः हिरण्याय च प्रपथ्याय च नमः किगिंचिलाय च क्षयणाय च नमः कपर्दिने च पुलस्तये च नमो गोष्ठ्याय च गृह्याय च नमः स्थल्प्याय च गेह्याय च नमः काट्याय च गह्वरेष्ठाय च नमोः हृदयाय च निवेश्याय च नमः पादुंसव्याय च रजस्याय च नमः शुष्क्याय च हरित्याय च नमो लोप्याय चोलप्याय च नमः ऊर्व्याय च सूर्म्याय च नमः पर्ण्याय च पर्णछद्याय च नमो बहुरमाणाय चाभिघ्नते च नमः आखिदते च प्रखिदते च नमो वह्किरिकेभ्यो देवानां हृदयेभ्यो नमो विक्षीणकेभ्यो नमो विचिन्वत्केभ्यो नमः आनर्हतेभ्यो नमः आमीवत्केभ्यः द्रापे अन्धसस्पते दरिद्रन्नीललोहिता येषां पुरुषाणामेषां पशूनां माभेर्मा रोमो येषां किञ्चनाममत् या ते रुद्रशिवा तनू शिवा विश्वाह भेषजी शिवा रुद्रस्य भेषजी तया नो मृडजीवसे इमागुं रुद्राय तपसे कपर्दिने क्षयद्वीराय प्रभरामहे मतिम् यधानश्यमसद्युपते चतुष्पदे विश्वं पुष्टं ग्रामे अस्मिन्ननादुरम् मृडानो रुद्रो तनोमयस्कृते क्षयद्वीराय नमसा विधेमते यच्छञ्जयोश्च मरुराय चे पिता तदस्यामतव रुद्रप्रणीतौ मानो महान्तमुतमानो अर्भगं मान उक्षन्तमुतमान उक्षितम् मानो वधेः पितरं मोदमातरं प्रियामानस्तनुवो रुद्ररीरिषः मानस्तोकेतन ये मान आयुषि मानो गोषु मानो अश्वेषुरीरिषः वीरान् मानो रुद्रभामितो वधीर्हविष्मं तो नमसा विधेमते आराते गोघ्न उत पूरुषघ्ने क्षयद्वीराय सुम्नमस्मेते अस्तु रक्षा च नो अधिजदेव ब्रूह्यदा च न शर्म यच्छद्विपरिहाः स्तुहि श्रुतङ्गर्तसदं युवानं मृगन्नभीपमुपहतृमुग्रम् मृडा चरित्रे रुद्रस्तवानो अन्यं ते अस्मन्निव बन्धुसेनाः परिणो रुद्रस्य हेतुर्प्रणक्तु परित्वेषस्य धुर्मतिरगायोः अवस्थिरा भगवद्यस्तनश्वमीढ्वस्तोकायतनयाय मृडया मीढुष्टमशिवतमशिवो नः सुमना भव परमे वृक्ष आयुधन् निधाय कर्तिं वसा न आचर पिनाकं बिभ्रदागहि विगिरित विलोहित नमस्ते अस्तु भगवः यास्ते सहस्रगुंधेतयोन्यमस्पन्निव बन्धुताः सहस्राणि सहस्रदा बाहुवोस्तव हेतयः तासामीशानो भगवः प्राचीना मुखाग्रधि सहस्राणि सहस्रशो ये रुद्रा अधिभूम्यां तेषादुं सहस्रयो जने वधन्वानि धन्वसी अस्मिन् महत्यर्णवे दरिक्षे भवा अधि नीलग्रीवासितिकण्ठा शर्वा अधः क्षमाचराः नीलग्रीवासितिकण्ठादिवगुं रुद्रा उपश्रिताः ये वृक्षेषु सस्पिञ्जरा नीलग्रीवा विलोहिताः ये भूतानामधिपतयो विशिखासः कपर्दिनः ये अन्येषु विविध्यन्ति पात्रेषु पिपतो जनान् ये पथां पथिरक्षय ऐलभृतायव्युधः ये तीर्थानि प्रजरन्ति सृकाबन्धो निषङ्गिणः य एतावन्दश्च भूयागुंशश्च दिशो रुद्रापितस्थिरे तेषागुं सहस्रयो जने वधन्वानि तन्मसि नमो रुद्रेभ्यो ये पृथिव्यां ये ऐन्दरिक्षे ये दिवि येषामन्नं वातो वर्षमिषभस्तेभ्यो दश प्राचेर्दश दक्षिणा दश प्रतिचेर्दशोदिचेर्दशोर्ध्वास्तेभ्यो नमस्ते नो मृडयं दुतेयं द्विष्मो यश्च नो द्वेष्टितं भोजं भे ददामि त्र्यम्बकं यजामहे सुगन्धिं पुष्टिवर्धनम् उर्वारुकमिव बन्धनान् मृत्योर्मुक्षीयमामृतात् यो रुद्रो अग्नौ यो अप्सु य ओषधीषु यो रुद्रो विश्वाभुवना विवेश तस्मै रुद्राय नमो अस्तु तमुष्टु हियस्विषः सुधन्वायो विश्वस्य क्षयदिभेषजस्य यक्ष्वामहेसौ मनसाय रुद्रन्नमो अभिर्देवमसुरन्दुवस्य अयं मे हस्तो भगवानयं मे भगवत्तरः अयं मे विश्वभेषजोऽयं शिवाभिमर्शनः एते सहस्रमयुतं पाशा मृत्योमर्त्यायहं तवे तान् यज्ञस्य मायया सर्वानवयजामहे मृत्यवे स्वाहा मृत्यवे स्वाहा ॐ नमो भगवते रुद्राय विष्णवे मृत्युर्मे पाहि प्राणानां ग्रन्थिरसि रुद्रो मा विशान्तकः तेनान्नेनाप्यायस्व ॐ शान्ति शान्ति शान्तिः ॐ हरि